नमस्ते
नमस्ते महोदय, रामप्रिया.
नमस्ते भगिनि. अस्तु, तर्हि अद्यतनविषयः अस्ति रागभावस्य साधारणकारणत्वं. रागभावः साधारणकारणत्वं भवितुमर्हति वा इति विषये चर्चा. एतावता गते सप्ताहे वयं दृष्टवन्तः, पूर्वपक्षी वदति यत् तत्र यः कुलालः अस्ति उदाहरणे, यत् यत् सः आनयति, यस्य आदानं भवति, ते एव कारणानि भवन्ति. तस्मिन् प्राग् अभावः न अन्तर्भूतः. तर्हि कथं तस्य कारणं प्रति अस्तित्वं साधयामः? अनन्तरं सम्बन्धः कल्पयितुं शक्नुमः एव. आरम्भे तस्य प्राग् अभावस्य कारणत्वं साधनीयं भवति. अस्मिन् सन्दर्भे तत्र अन्तिमपरिच्छेदः, तत्र 141 इति पेज् पुटे अन्तिमपरिच्छेदः एकवारं पठित्वा तत्र किञ्चित् कण्टिन्यूटि भवति इति मम चिन्तनं. तत्र शुकवनं महोदय पठितुमिच्छति वा? सत्यं तस्मात्.
हा, पठामि महोदय. सत्यं न सम्भवति प्रागभावस्य आदानं. मूर्तानां हि एतद् आवश्यकं यत् जनकत्वनिर्वाहाय आनीयन्ते. तावता आनयन अयोग्यानां कारणता न व्याहन्यते. दर्शितरीत्या सिद्धकारणं कारणभावयोः दिक्कालयोः विभुत्वमपि सिद्धमेव. न हि तयोः क्रिया सम्भवति. ज्ञानसमवायिकारणस्य आत्मनः विभुत्वात् क्रियोत्पाद असम्भवः स्फुटः एव. गुरुत्वादिगुणानां पतनादिकारणता निरूपितैव क्रियायाः अपि विभागं प्रति, उत्तरदेशसंयोगं प्रति च कारणता निरूपिता. न हि गुणक्रिययोः अमूर्तयोः आदानं सम्भवति. अतः मूर्तानामेव कार्यादिकरणे आदानं कारणतां ग्राहयेत्, अनादानां च प्रतिषिध्येत्. न च प्रकृतः प्रागभावः मूर्तरूपः इति तत्कारणत्वनिरूपणाय आदान अनादानयोः चिन्ता निष्फला एव इति. अस्मिन् परिच्छेदे तत्र मूर्तानां मूर्तद्रव्याणामेव आदानं कर्तुं शक्यते इति यद् वयं जानीमः तदेव उक्तमस्ति. मूर्तद्रव्ययोः एव द्रव्याणामेव आदानं कर्तुं शक्यते. किन्तु अतः मूर्तद्रव्यस्य विषये एव, मूर्तद्रव्यस्य कारणत्वविषये एव आदान अनादानयोः चिन्तनं भवेत्. यद् मूर्तद्रव्यं नास्ति तस्य आदानं वा अनादानं वा तत् अधिकृत्य तस्य कारणता अस्ति वा न वा इति न चिन्तनीयम् एव इति अस्मिन् परिच्छेदे दत्तमस्ति. अत्र उदाहरणार्थम् इदानीं तत्र वयं दृष्टवन्तः दिक्कालयोः साधारणकारणत्वं वयं पठितवन्तः. दिक्कालः अपि विभुः अस्ति इति वयं जानीमः. यत् विभुः अस्ति तस्य क्रिया न भवत्येव. क्रिया न भवति चेत् आदानं तेषाम् आदानं न कर्तुं शक्यते इति कृत्वा दिक्कालयोः कारणता आदानं स्वीकृत्य वयं न उक्तवन्तः. एवमेव आत्मनः अपि विभुत्वात् तत्र क्रियोत्पत्ति न भवति इति कृत्वा तस्य कारणत्वम् आदानम् अनादानं स्वीकृत्य न स्थापितुं शक्यते. एवं च तत्र गुरुत्वादिगुणानाम् अपि, गुणः तु समवायसम्बन्धेन मूर्तद्रव्ये द्रव्ये वर्तते. द्रव्यं मूर्तम् अस्ति चेदेव तेन सह गुणस्यापि आदानं कर्तुं शक्यते. केवलं गुणस्य आदानं न कर्तुं शक्यते इति कृत्वा तत्र गुरुत्वादीनां गुणानाम् अपि च पतनादि कारणता गुरुत्वादिगुणानां पतनादिकारणता निरूपित एव इति तत्र यदा गुरुत्वस्य निरूपणं वयं कृतवन्तः तत्र पतनादिकारणता स्वीकृत्य एव किन्तु साक्षात् गुरुत्वस्य पतनादि इति नास्ति द्रव्यस्य पतनादि क्रिया इति स्वीकृत्य एव तत्र गुरुत्वस्य कारणत्वं पतनक्रिया पतनक्रियायाः विषये वयं साधितम् अपि च क्रियायाः अपि विभागं प्रति आम् तत्र विभागस्य विभागसाधनसमये वयं दृष्टवन्तः प्रथमं क्रिया भवेत् प्रथमक्षणे तदनन्तरमेव क्रियातः विभागः इति क्रियया एव विभागं साधितं तत्र उत्तरसंयोगं प्रति अपि क्रियायाः कारणता अस्ति अपि च विभागस्य कारणता अस्ति इति वयं साधितवन्तः अतः इदानीं गुणक्रिययोः अमूर्तयोः आदानं सम्भवति न सम्भवति इति अतः किमर्थम् इत्युक्ते तत्र गुणः द्रव्ये एव आश्रितमस्ति एवमेव क्रिया अपि द्रव्ये एव आश्रितमस्ति इति कृत्वा तेषाम् आदानं द्रव्यं विना तेषाम् आदानं न कर्तुं शक्यते इति आहत्य किं पर्यवसति इत्युक्ते आदानेन तत्र कारणत्वं मूर्तद्रव्यविषये एव तादृशचिन्ता भवितुमर्हति यद् मूर्तद्रव्यं नास्ति इत्युक्ते तत्र अमूर्तद्रव्यं वा विभुद्रव्यं वा नो चेत् गुणक्रियादि पदार्थाः वा सन्ति चेत् तेषां कारणत्वम् आदानं वा अनादानं वा इति स्वीकृत्य न वक्तुं शक्यते इति कृत्वा तादृशचिन्तनं येषु निष्फला एव इति अत्र दत्तम्
महोदय केवलमत्र वदामि गुणः क्रिया आत्मना आत्मा एतत् सर्वं कारणानि भवन्ति यद्यपि ते क्रिययोग्यः नास्ति तथापि ते कारणानि भवन्ति इति तदर्थं कारणविषये आदनं वा अनादनं तदा तर्कः सम्यक् न भवति अस्तु अग्रे भवान् पठतु भवतु अग्रे अग्रिमे पुटे
हा भवतु अनादानेपि केषाञ्चित् कारणता प्रागभावस्य परं कथं सा वेदितव्या इति चेत्
पुष्पा भगिनी म्यूट् कर्तुं शक्नोति वा
क्षमितां क्षमितां महोदय
क्षम्यतां भवतु अनादानेपि केषाञ्चित् कारणता प्रागभावस्य परं कथं सा वेदितव्या इति चेत् उच्यते भवदुक्त्या आनीतानि चेतनेन कुलालेन घटकारणमि घटकारणानि मृदि जलसंयवनेन पिण्डं निर्माय दण्डेन चर्कं चक्रं भ्रमयित्वा कपालनिर्माणमपि कृतं तादृशौ द्वौ कपालौ ज्येष्ठक्षणे सिद्धौ तौ च घटसमवायीकारणे न च तावतापि घटोत्पत्तिः असमवायीकारणं कपालद्वयसंयोगः आवश्यकः स च आषाढक्षणे कुलालेन उत्पादितः ततः किं श्रावणक्षणे घटोत्पत्तिः इति अत्र अस्ति पुनः अहं पठामि भवतु अनादाने अपि केषाञ्चित् कारणता इति पूर्वस्मिन् परिच्छेदे वयं दृष्टं तत्र आदान अनादानचिन्तनं तत्र मूर्तद्रव्यविषये एव करणीयम् इति इदानीं तत्र यद्यपि यस्य कस्यापि पदार्थस्य अनादाने अपि तस्य कारणता भवत्येव इति अत्र उद्घाटरीत्या दत्तमस्ति प्राग्भावस्य कथं सा वेदितव्या इति चेत् उच्यते इदानीं प्राग्भावः तु अभावरूपः इति कृत्वा तस्य आदानं वा अनादानं वा न कर्तुं शक्यते तादृशचिन्ता निष्फलमेव इति वयं दृष्टम् अस्माभिः दृष्टम् अतः किन्तु प्राग्भावस्य साधारणकारणता अस्ति इति अपि दत्तम् अतः तत् कथं साधनीयम् इति चेत् इदानीम् उच्यते भवदुक्तरीत्या
अत्र परं पदं प्रागभावस्य परं परमित्युक्ते किं
प्रागभावस्य विषये इति
अत्र परम् इत्युक्ते किन्तु
हा किन्तु
परन्तु प्रागभावस्य कथम् इति परस्य बहूनि बहवः अर्थाः किन्तु अत्र किन्तु इति वर्गे उक्तम्
अस्तु अस्तु
अत्र सा वेदितव्या सा का
कारणता इति
कारणता श्रीलिङ्गपदम् अस्तु अग्रे
श्रीलिङ्गमस्ति अतः सा वेदितव्या इति चेत् उच्यते भवदुक्त्या भवद्युक्त्या भवद्युक्त्या भवदुक्त्या आनीतानि चेतनेन कुलालेन घटकारणानि तत्र
भवदुक्त्या
तत्र पूर्वपक्षिणा
यदा पूर्वपक्षी वदति सर्वम् आनेतव्यं भवति कुलालेन इति सः उक्तवान् किल पूर्वम्
आम् आम् इति तत्र भवदुक्त्या आनीतानि चेतनेन कुलालेन घटकारणानि तत्र पूर्वपक्षिणा उक्तं कुलालः एव कपालं स्वीकृत्य तत्र आनयति अपि च चक्रं जलं दण्डम् इत्यादिकं कार्यक्षेत्रे आनयति इति मृदि जलसंयवनेन पिण्डं निर्माय दण्डेन चक्रं भ्रमयित्वा कपालनिर्माणमपि कृतम् इति तावत्पर्यन्तं तत्र कुलालेन एव तत्र आनीय सर्वम् आनीय तत्र मृद् जलं तद् मिश्रणं कृत्वा पिण्डं कुलालेन निर्मितं तदनन्तरं तत् पिण्डं स्वीकृत्य चक्रे स्थापयित्वा दण्डेन चक्रं भ्रमयित्वा इदानीं कपालनिर्माणमपि कुलालेन कृतं तावत्पर्यन्तं यद् आनीतं तदेव कारणम् अस्ति किन्तु तदनन्तरं तादृशौ द्वौ कपालौ ज्येष्ठक्षणे सिद्धौ इदानीं तत्र ज्येष्ठक्षणः इति चिन्तयामश्चेत् तत्र ज्येष्ठक्षणे कपालद्वयं कुलालस्य कृते अस्ति तौ च घटसमवायि कारणे तत्र कारणे इत्युक्ते द्विवचनं कपालद्वयमेव कपालद्वयमपि घटस्य समवायिकारणं भवति किमर्थम् इत्युक्ते तत्र स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घटं जनयति इति कृत्वा घटं प्रति कपालः समवायिकारणं भवति न च तावतापि घटोत्पत्तिः इदानीं तत्र केवलं कुलालेन कपालद्वयं तत्र अस्ति चेत् कुलालस्य पुरतः अस्ति चेत् घट उत्पत्तिः न भवति किं ततः अतः किम् आवश्यकम् इति चेत् असमवायीकारणं कपालद्वयसंयोगः आवश्यकः यदा कुलालेन तत्र संयोगः कृतः चेत् कपालद्वयस्य संयोगः कृतः चेदेव तत्र घटनिर्माणं भवति इति अस्ति स च आषाढक्षणे कुलालेन उत्पादितः इदानीं स इत्युक्ते तत्र कपालद्वयसंयोगः एव अग्रिमक्षणे आषाढक्षणे कुलालेन कपालद्वयसंयोगः उत्पादितः अस्ति ततः किं भवति इत्युक्ते तत् अग्रिमक्षणे किं भवति इत्युक्ते श्रावणक्षणे अग्रिमं क्षणं तु श्रावणक्षणं तस्मिन् क्षणे घटोत्पत्तिः भवति इति अस्ति अत्र असमवायिकारणं कपालद्वयसंयोगः तत्तु मूर्तद्रव्यं नास्ति संयोगः इति गुणः गुणः यदा भवति चेदेव उत्पादयति चेदेव उत्पादनं भवति चेदेव तस्य घटनिर्माणं भवति इति कृत्वा तावत्पर्यन्तं यद् आनीतम् अनेन एव तावत्पर्यन्तं यत् निर्मितं तत् सम्भवति किन्तु तदनन्तरम् असमवायिकारणीभूत कपालद्वयसंयोगः न तस्य उत्पादनं न भवति चेत् घट उत्पादनं न भवति इति कृत्वा तत्र अनादानकपालद्वयसंयोगेन घट उत्पादनं भवति इति एतावत्पर्यन्तं निरूपितम्.
सुन्दरं महोदय. अग्रे सुनील् महोदय पठति वा एकवारं तद् एक शुकवान् महोदय प्रथमं प्रथमं चित्रम् एकवारं वदतु. किं किं भवति तत् प्रक्रिया अस्ति प्रक्रिया एकवारं प्रदर्शयतु.
इदानीं चैत्रक्षणे तत्र पिण्डनिर्माणं भवति तत्र जलसंयो जल मृद् संयोगं कृत्वा तत्र पिण्डं कुलालेन निर्मितं. वैशाखक्षणे चक्रभ्रमणं कृतं कुलालेन. ज्येष्ठक्षणे कपाल उत्पत्तिः अपि अनेन कृतम्. आषाढक्षणे कपालद्वयसंयोगस्य उत्पत्तिः कुलालेन कृतं. तदनन्तरं श्रावणक्षणे घटोत्पत्तिः भवति इति तावत्पर्यन्तम् अत्र क्षण प्रक्रिया दत्तमस्ति.
उत्तमं महोदय. अग्रे सुनील् महोदय.
अत्र द्वितीयचित्रम् अस्ति तत्र ततः किल.
आं महोदय.
अत्र द्वितीयचित्रे अपि समानम् एव इति चिन्तयामि. अत्र चैत्रक्षणे पिण्डनिर्माणं करोति कुलालः. वैशाखक्षणे चक्रभ्रमणं करोति. तस्य परिणामस्ति ज्येष्ठक्षणे कपालस्य उत्पत्तिः. आषाढक्षणे तु कपालद्वयसंयोग उत्पत्तिः भवति. कुलालः चक्रं दण्डः प्रागभावः. अत्र कुलालः अस्ति चक्रमस्ति दण्डः अस्ति परन्तु अत्र घटस्य प्रागभावः अपि अस्ति. श्रावणक्षणे घटोत्पत्तिः भवति. तत्रापि कुलालः अस्ति चक्रमस्ति दण्डः अस्ति परन्तु घटस्य उत्पत्तिः भवति. भाद्रपदक्षणे सहानवस्थानात् प्रागभावः नास्ति अतः न घटोत्पत्तिः. इतः अवधानेन चिन्तयामः. उत्पन्नः श्रावणक्षणे घटः, तत्पूर्वक्षणे आषाढे दण्डचक्र कपालसंयोगादि सर्वकारणानि स्वस्य यः संयोग्यः सम्बन्धः तेन सम्बन्धेन कपाले आसन्. तदग्रिमक्षणे श्रावणक्षणे घटः उत्पन्नः. किं तस्मिन् श्रावणक्षणे कपाले दण्डादयः न सन्ति? सन्ति एव. श्रावणक्षणे अपि हि कपालः स्वस्मिन् तादात्म्येन अस्ति. संयोगेन चक्रं कपाले अस्ति. स्वजन्यभ्रमिमत्तासम्बन्धेन दण्डोऽपि अस्ति कुलालः संयोगेन. कपालद्वयसंयोगो अपि हि तस्मिन् श्रावणक्षणे वर्तते. अतः अत्र पुनः अहं पठामि. अत्र अवधानेन चिन्तयामः. उत्पन्नः श्रावणक्षणे घटः. अतः श्रावणक्षणे एव घटः उत्पन्नः. तत्पूर्वक्षणे आषाढे दण्डचक्रकपालकपालसंयोगादि सर्वकारणानि स्वस्य यः योग्यः सम्बन्धः तेन सम्बन्धेन कपाले आसन्. तत्र तस्मिन् पूर्वक्षणे अतः श्रावणक्षणस्य पूर्वं अन्यकारणानि आसन् स्वस्मिन् तादात्म्यसम्बन्धेन आसन्. तदग्रिमक्षणे
श्रावणक्षणे तादात्म्यसम्बन्धं केवलं न यः योग्यसम्बन्धः
इत्युक्ते स्वस्य स्वस्य योग्यसम्बन्धः किल. इत्युक्ते
दण्डः एकेन सम्बन्धेन चक्रः एकेन सम्बन्धेन एवं यः योग्यसम्बन्धः कारण
तस्मिन् क्षणे अपि घटः न आसीत्. तदग्रिमक्षणे श्रावणक्षणे एव घटः उत्पन्नः. किं तस्मिन् श्रावणक्षणे कपाले दण्डादयः न सन्ति? अतः अत्र प्रश्नः अस्ति. अत्र श्रावणक्षणे यदा घटस्य उत्पन्नः भवति तत्र कपाले दण्डादयः न सन्ति वा इति प्रश्नः. अत्र उत्तरमस्ति सन्ति एव. श्रावणक्षणे अपि हि कपालः स्वस्मिन् तादात्म्येन अस्ति, संयोगेन चक्रं कपाले अस्ति, स्वजन्य भ्रमिजन्य भ्रमिमत्तासम्बन्धेन दण्डः अपि अस्ति अत्र, कुलालः संयोगेन अस्ति. अतः अत्र कपालद्वयसंयोगः अपि तस्मिन् श्रावणक्षणे आसीत् इति विवरणमस्ति.
तस्मिन् इत्युक्ते कस्मिन् कपालद्वयसंयोगो अपि तस्मिन् कस्मिन्
तस्मिन् इत्युक्ते घटे एव किल
कार्ये कारणाधिकरणे कार्याधिकरणे क्षम्यतां
कार्याधिकरणे आसीत्
अत्र विषयः अस्ति यत् घटोत्पत्तेः पूर्वक्षणम् आसन् कुलालः चक्रं दण्डः इत्यादि ते सर्वे घटोत्पत्तेः अनन्तरक्षणे श्रावणक्षणे अपि आसन् किन्तु अग्रे पठतु भवान् एतावत् प्रश्नः अस्ति वा
भगिनि महोदय अत्र प्राग्भावः तु अस्ति न आषाढे
अग्रे नास्ति
प्राग्भावः अस्ति अस्ति
प्राग्भावः अस्ति किन्तु अग्रिमे क्षणे नास्ति इति मुख्यविषयः इति अग्रे आगच्छति अग्रे महोदय पठति
एवं च यानि कारणानि घटोत्पत्ति प्राक्षणे आषाढक्षणे आसन् घटं च श्रावणक्षणे उत्पादितवन्ति तानि सर्वाणि अपि घटोत्पत्तिक्षणे श्रावणक्षणे अपि तदेव कपाले सन्ति. एवं सति अग्रिमे भाद्रपदक्षणे पुनरपि घटोत्पादः कुतः न भवति? सार्वजनीनमेतत् यत् भाद्रपदे क्षणे चक्रादिसत्त्वे अपि न पुनः घटोत्पादः. अयं च भाद्रपदक्षणे घटस्य अनुत्पादः तत्पूर्वस्मिन् क्षणे उत्पादः प्रागभावस्य घटकारणतायां सुष्ठु निर्वहति. एवं च यानि कारणानि घटोत्पत्ति प्राक्षणे आषाढक्षणे आसन् घटं च श्रावणक्षणे उत्पादितवन्ति तानि सर्वाणि अपि घटोत्पत्तिक्षणे श्रावणक्षणे अपि तथैव कपाले सन्ति. अत्र सर्वाणि कारणानि घटस्य उत्पत्तेः पूर्वक्षणे अतः प्रागभावक्षणे इत्युक्ते अत्र आषाढक्षणे इति सर्वाणि कारणानि आसन्. घटः तु श्रावणक्षणे एव उत्पादनम् अभवत् परन्तु अत्र तानि सर्वाणि अपि कारणानि घटोत्पत्तिक्षणे इत्युक्ते अत्र श्रावणक्षणे अपि कपाले सन्ति.
अत्र उत्पादितवन्ति कीदृशं पदम् उत्पादितवन्ति? जानाति वा
सत्रप्रत्ययं वा
न? अत्र तवत् प्रत्यय यथा घटवत् घटवान् घटवान् घटवन्तौ घटवन्तः इति पुल्लिङ्गे, किन्तु घटवत् अस्ति चेत् नपुंसकलिङ्गे तत्र बहुवचनं घटवन्ति तथा यथा उत्पादितवत् उत्पादितवन्ति बहुवचनं, उत्पादितवत् एकवचनं, उत्पादितवन्ति बहुवचनं, कारणानि उत्पादितवन्ति नपुंसकलिङ्गं पदं कारणम्. अस्तु अग्रिमे एवं सति
अग्रिमे भाद्रपदक्षणे पुनरपि घटोत्पादः कुतः न भवति? अतः अत्र प्रश्नः अस्ति श्रावणक्षणे घटोत्पत्तिः भवति, पुनः अत्र भाद्रपदक्षणे पुनः घटस्य उत्पादः पुनः न भवति इति प्रश्नः. सार्वजनीनमेतत् यत् भाद्रपदे क्षणे चक्रादि सत्त्व अपि न पुनः घटोत्पादः अत्र भाद्रपदक्षणे चक्रादि अन्यकारणानि सन्धि परन्तु अत्र पुनः घटस्य उत्पादः न भवति इति सर्वेषां अङ्गीकारः अस्ति एव. अयं च भाद्रपदक्षणे घटस्य अनुत्पादः तत्पूर्वस्मिन् क्षणे उत्पादः प्रागभावस्य घटकारणतायां सुष्ठु निर्वहति. अतः अत्र पुनः भाद्रपदक्षणे घटस्य उत्पादः न भवति, तस्य पूर्वस्मिन् क्षणे एव उत्पादः भवति इति कारणेन श्रावणक्षणस्य पूर्वं प्रागभावः आसीत् इति स्वीकृत्य अत्र घटकारणतायां प्रागभावस्य कारणम् आसीत् इति एव, तदेव किल सुष्ठु इति अहं न जानामि. अत्र
सुष्ठु स्पष्टतया सम्यक् निःसंशयेन निर्वहति.
अतः अत्र श्रावणक्षणस्य अनन्तरं भाद्रपदक्षणे पुनः घटस्य उत्पादनं न भवति, पूर्वक्षणे आषाढक्षणे प्रागभावः आसीत् इति कारणं स्वीकृत्य अत्र स्पष्टता भवति इति
अस्ति. यतोहि भाद्रपदक्षणे प्रागभावः नास्ति किन्तु पूर्वमासीत्, तर्हि साधयितुं शक्नुमः यत् घटकारणता प्रागभावे अस्ति, प्रागभावः घटकारणम् अस्ति इति. अस्तु अग्रे पुष्पा भगिनी, पुस्तकम् अस्ति वा? रामप्रिया भगिनी पठति वा?
इदानीं गृहम् आगच्छामि, पञ्चनिमिषम्.
अस्तु अस्तु रामप्रिया भगिनी पठति वा?
आम् आम् पठामि महोदय. कथम् उच्यते अभावानां हि प्रतियोगिना सह सहान अवस्थानरूपविरोधः उद्देशग्रन्थे निरूपिता एव. सहान अवस्थानां च विरोधिनो द्वयोः एकस्मिन् क्षणे अभवनं. यस्मिन् क्षणे घटः न तस्मिन् क्षणे तत् प्रागभावः. यस्मिन् क्षणे घट प्रागभावः न तस्मिन् क्षणे घटः. प्रकृते ईदृशे सहान अवस्थाने अवधारिते आषाढक्षणे घटोत्पत्ति प्राक्षणे चक्रदण्डादि समवधाने क्षणे घटः न एतावता उत्पन्ना इति तत् प्रागभावः. प्रतियोगिनः असत्वात् वर्तते. अग्रिमे च घटोत्पत्तिक्षणे घटेन सहान अवस्थानात् नास्ति.
एकनिमिषं पुष्पा भगिनी किञ्चित् म्यूट् करोति वा, तत्र ध्वनिः आगच्छति. हरि ओम्,
म्यूट् कृतं म्यूट् कृतम्.
अस्तु धन्यवादः. भवतु भगिनि, रामप्रिया भगिनि कथम्?
आम् इदानीं यदा अभावानां हि प्रतियोगिना सह सहान अवस्थानरूपविरोधः उद्देशग्रन्थे निरूपिता एव. यदा वयं उद्देशग्रन्थः इत्युक्ते तर्कसङ्ग्रहः एव किल, तस्मिन् निरूपिता एव. यदा सहान अवस्थानरूपविरोधः इत्युक्ते अभावः घटः घटाभावः द्वयोः एकस्मिन् समये न भवति इति किल, सहान अवस्थानरूपविरोधः.
अत्र अभावानां किमर्थम् अभावानां बहुवचनम्?
अभावानां हि घटाभावः
अत्र अभावः चतुर्विधः, प्रागभावः, प्रध्वंसभावः, अत्यन्तभावः, अन्योन्यभावः इति चतुर्विध अभावाः सन्ति. अभावस्य प्रतियोगिना सह सहानवस्था सहावस्थानरूपविरोधः अस्ति. यतः प्रकाशः अन्धकारः समानसमये न भवितुमर्हन्ति. अभावः प्रतियोगी, सः समानसमये न भवन्ति.
सहान अवस्थानां च विरोधिनोः द्वयोः एकस्मिन् क्षणे अभवनं, तदेव वयं दृष्टवन्तः इदानीम्. यस्मिन् क्षणे घटः न तस्मिन् क्षणे तत् प्रागभावः. यदा यस्मिन् क्षणे घटः नास्ति तस्मिन् क्षणे तस्य अभावः अस्ति, प्रागभावः इति अस्ति. यस्मिन् क्षणे घटप्रागभावः, आम्, यदा प्रागभावः अस्ति चेत् तस्मिन् क्षणे घटः नास्ति इति अवगन्तव्यम्. प्रकृते च ईदृशे सहानावस्थाने अवधारिते आषाढक्षणे घटोत्पत्तिप्राक्षणे आषाढक्षणे यस् घटोत्पत्तिप्राक्षणे चक्रदण्डादि समवधानक्षणे घटः न एतावता उत्पन्ना इति तत् प्रागभावः प्रतियोगिनः असत्वात् वर्तते. अस्तु, यदा वयम् आषाढक्षणे स्वीकुर्मः, घटोत्पत्तिः पूर्वम् अस्ति आषाढक्षणे, श्रावणक्षणे तु घटोत्पत्तिः आषाढक्षणे पूर्वक्षणे, तस्मिन् क्षणे तु चक्र दण्डः सामग्री अस्ति, घटस्य सामग्री अस्ति, तत्र प्रागभावः अपि अस्ति. किमर्थम् इत्युक्ते तस्मिन् क्षणे घटस्य उत्पत्तिः न भवति, प्रतियोगिनः असत्वात् वर्तते. आम्,
कः वर्तते?
प्रागभावः वर्तते.
किमर्थं वर्तते?
किमर्थम् इत्युक्ते तस्मिन् क्षणे घटस्य अभावः अस्ति, परन्तु चक्रदण्डादिसामग्री तु अस्ति, घटस्य उत्पत्तिसामग्री तु अस्ति, परन्तु प्रागभावः अपि अस्ति. किमर्थम् इत्युक्ते घटस्य उत्पत्तिः तस्मिन् क्षणे न भवति, अग्रिमक्षणे एव भवति इति.
अत्र लिखितं प्रतियोगिनः असत्वात्, प्रतियोगी घटः, तस्य असत्वात् तत्कारणात् प्रागभावः वर्तते.
अग्रिमे च घटोत्पत्तिक्षणे घटेन सहानावस्थानात् नास्ति, अग्रिमक्षणे तु घटः उत्पन्ना भवति, अतः तस्मिन् क्षणे प्रागभावस्य आवश्यकता नास्ति, तस्य असत्वम् अस्ति, प्रागभावस्य असत्वः.
किमर्थं नास्ति?
घटोत्पत्तिः भवति इति.
अत्र किम्? अत्र घटेन सहानावस्थानात् प्रागभावः घटेन सह सहानावस्था न भवति, यतो हि घटः अस्ति, घटेन सहानावस्था अस्ति, तस्मात् प्रागभावः नास्ति. विरोधिनः द्वौ विरोधिनः विरोधिनौ घटः च प्रागभावः विरोधिनौ, तस्मात् सहानावस्था नास्ति, घटेन सहानावस्थानात् प्रागभावः नास्ति. अस्तु, अग्रे भगिनि.
आम्, तथा च चक्रादिघटकारणेषु आषाढक्षणे तत्र विद्यमानः घटप्रागभावोऽपि अन्तर्भावनीयः. चक्रादीनि कारणानि प्रागभावश्च एतत् समुदाय एव घटसामग्री, सा च सामग्री आषाढक्षणे वर्तते इति श्रावणक्षणे घटोत्पादः. तद् अग्रिमे श्रावणक्षणे चक्रादीनां सत्त्वे अपि घटोत्पादेन नष्टः प्रागभावः इति यावत् कारणान्तर्गतः प्रागभावो न वर्तते. अतः न अग्रिमे भाद्रपदक्षणे पुनरपि घटोत्पादप्रसङ्गः. संक्षेपतश्च उत्पन्नस्य पुनरुत्पत्तिवारणाय प्रागभावकारणता स्वीकारः आवश्यकः. इदानीं किम् अभवत्, यदा चक्रादि घटकारणेषु आषाढक्षणे तु चक्र दण्डादि सामग्री अस्ति, तत्र विद्यमानः घटप्राग् अभावोपि अन्तर्भावनीयः. तस्मिन् क्षणे प्रागभावः, घटस्य प्रागभावः अस्ति इति अपि वयं स्वीकरणीयम्. तस्मिन् अस्ति इति, तेषाम् अस्ति इति,
अन्तर्भूतः तथा
अन्तर्भावः
गणनीयः तेषु सामग्रीषु प्रश्नः.
चक्रादीनि कारणानि प्रागभावश्च एतत् समुदाय एव घटसामग्री. यदा वयं चक्रादीनि इति घटसामग्री इति कारणानि स्वीकुर्मः, तस्मिन् समुदाये प्रागभावः अपि स्वीकरणीयः घटसामग्री इति. सा च सामग्री आषाढक्षणे वर्तते इति श्रावणक्षणे घटोत्पातः. यत् सा च सामग्री इत्युक्ते कारणं घटसामग्री एव वा, तदेव स्त्रीलिङ्गपदं वा?
घटसामग्री
अस्तु. तद् यदा वर्तते आषाढक्षणे तदानीमेव श्रावणक्षणे घटोत्पादः भवति.
महोदय, प्रागभावः सामग्री कथम् आयाति? सामग्री तु प्रदाता इति न,
इति सर्वदा न, तदेव अत्र उक्तं. यथा घट, यथा दण्डं, दण्डः, चक्रं, तथा मृत् तथा प्रागभावः अपि घटसामग्री इति अन्तर्भूता भवति.
तत्तु सामग्री नास्ति,
सामग्री इति चिन्तनीयं,
चिन्तनीयं
सामग्री
वस्तूनि न सन्ति, ते प्रागभावः वस्तु नास्ति,
सत्यम् अभावः अस्ति. तथापि सामग्री इत्युक्ते घटं प्रति कारणं, तथाविधसमुदाय
कारण
कारणसमुदाये.
महोदय, तत्र अभावः तु पदार्थः एव, न तु द्रव्यं तावदेव.
सत्यम्,
अतः पदार्थः नास्ति इति नास्ति, पदार्थः एव.
तद् अग्रिमश्रावणक्षणे चक्रादीनां सत्त्वे अपि श्रावणक्षणे यदा घटोत्पत्तिः भवति, परन्तु तत्र तु चक्रादि सामग्री अस्ति, घटोत्पदे पादेन नष्टः प्रागभावः एव. सामग्री तु अस्ति, परन्तु तस्मिन् क्षणे, यस्मिन् क्षणे घटोत्पत्तिः भवति, तस्मिन् क्षणे प्रागभावस्य नष्टः भवति. यावत् कारणात् अन्तर्गतः प्रागभावः न वर्तते, तदेव वयं दृष्टवन्तः, घटेन सहानवस्थानात् प्रागभावः न भवति इति वयं दृष्टवन्तः. अतः यदा यद्यपि चक्रदण्डादि कारणानि सन्ति, प्रागभावस्य तु नष्टः भवति घटोत्पत्तिक्षणे. अतः न अग्रिमे बादरपदक्षणे पुनरपि घटोत्पत्तिप्रसङ्गः, घटोत्पादप्रसङ्गः. यदा बादरपदक्षणे यद्यपि कुलालः चक्रदण्डादि सामग्री अस्ति, प्रागभावस्य तु नष्टः जातः, अतः तस्य पुनर् घटोत्पाद पादनस्य प्रसङ्गः न भवति अग्रिमक्षणे. उत्पन्नस्य सङ्के उत्पन्नस्य पुनरुत्पत्तिवारणाय, उत्पन्नस्य पुनरुत्पत्ति इत्युक्ते पुनः तस्य उत्पत्ति वारणाय प्रागभावकारणता स्वीकारः आवश्यकः. प्रागभावस्य नष्टता इति कारणता इति वक्तुं शक्नुमः वा?
वक्तुं शक्नुमः, किन्तु अत्र सर्वाणि कारणानि सन्ति इति, प्रागभावः कारणं नास्ति इति चिन्तयतु, तर्हि ये कारण यानि कारणानि आषाढक्षणे सन्ति ते सर्वे श्रावणक्षणे अपि सन्ति तर्हि पुनः घटोत्पत्ति भवेत्, किन्तु तथा न भवति, तदर्थम् एषः घटः न पुनः न भवति, तदर्थम् एतस्य घटस्य प्रागभावः कारणता विषये स्वीकर्तव्यं भवति अस्माभिः. संक्षेपतः उत्पन्नस्य पुनरुत्पत्तिवारणाय, नो चेत् सर्वाणि कारणानि सन्ति तर्हि पुनरुत्पत्तिः भवतु, परन्तु तथा न भवति, यतोहि एकं कारणम् इदानीं नास्ति. किं तत्? प्रागभावः इदानीं नास्ति, तस्मात् कारणं भवेत्. पूर्वक्षणे अस्ति, अग्रिमक्षणे नास्ति, तथा. अस्तु, समापयतु भगिनि अग्रे. निर्णीते
निर्णीते च प्रागभावस्य कारणत्वे कपाले सम्बन्धोऽपि दैशिकविशेषणतारूपः अस्ति एव इति कार्यकारणयोः समानाधिकरणकरण्यमपि उपपन्नं, तथा च प्रागभावस्यापि कार्यमात्रं प्रति कारणत्वम् आयतम्. एतावता दिक्कालयोः ईश्वरसमवेतज्ञान इच्छाकृतीनां प्रागभावस्य च कार्यमात्रं प्रति कारणत्वं सिद्धम्. इदानीं वयं दृष्टवन्तः यदा प्रागभावस्य कारणत्वे कपाले सम्बन्धः अस्ति, दैशिकविशेषणतारूपः इत्युक्ते स्वरूपसम्बन्धः
एतावता निर्णीते च प्रागभावस्य कारणत्वे कपाले इति एकं विषयम्. एतावता निर्णीतं, किं निर्णीतं? प्रागभावस्य कारणत्वम् अस्ति, अपि च कपाले अस्ति, कारणं कार्यकरणे भवेत् इति निर्णीतं. तर्हि अग्रे सम्बन्धः वदतु.
सम्बन्धः तु दैशिकविशेषणतारूपः अस्ति एव, इत्युक्ते यदा स्वरूपसम्बन्धः अस्ति एव कार्यकारणयोः समानाधिकरण्ये करण्यमपि उपपन्नम्. तत्र स्वरूपसम्बन्धेन प्रागभावः कपाले.
केन सम्बन्धेन इति पृच्छामः चेत् केन सम्बन्धेन प्रागभावः कपाले अस्ति?
स्वरूपसम्बन्धेन.
तत् स्वरूपसम्बन्धः किं बृहद्गणः, तस्मिन् दैशिकविशेषणता इति इत्युक्ते यस्मिन् देशे घटोत्पत्तिः भवति तस्मिन्नेव देशे प्रागभावः अस्ति. समानदिक् अस्ति, समानदेशः अस्ति न वा? यस्मिन् देशे प्रागभावः आसीत् तस्मिन्नेव देशे घटोत्पत्तिः भवति, तर्हि दैशिकविशेषणता.
तदा च प्राग आम् महोदय,
तादृशसमानाधिकरण्यं तथा च
प्रागभावस्य अपि कार्यमात्रं प्रति कारणत्वम् आयतम्. प्रागभावस्य कार्यमात्रं प्रति प्रागभावस्य कारणता इति वयं कारणता कार्यता प्रति
कार्यमात्रम् इत्युक्ते
कार्यम् एव, केवलं कार्यम् इति वा?
न मात्रं पदस्य अर्थद्वयमस्ति न वा? एकं तु केवलम्, अन्य अस्ति सर्वं, सर्वाणि कार्याणि प्रति. कार्यमात्रं सर्वाणि कार्याणि प्रति
कारणत्वम्
इत्युक्ते साधारण
सर्वाणि इति वदनेन घटस्य न कोऽपि अन्य कोऽपि
तत् मुख्यविषयः अस्ति, प्रश्नः समीचीनः. अत्र घटस्य प्रागभावः घटं प्रति कारणं, पटस्य प्रागभावः पटं प्रति कारणं, किन्तु प्रागभावः सामान्यं, सर्वाणि कार्याणि सर्वेषां कार्याणां प्रति प्रागभावः कारणं. तर्हि साधारणकारणम् इति स्वीकुर्वन्ति नैयायिकाः. अग्रे भगिनि प्रागभावस्य कार्यमात्रं प्रति
कारणत्वम् आयतम् इति पृष्टवन्तः. अनन्तरम् एतावता दिक्कालयोः ईश्वरसमवेतज्ञान इच्छाकृतीनां प्रागभावस्य च कार्यमात्रं प्रति कारणत्वं सिद्धम्. एतावता वयं दृष्टवन्तः दिक्काल ईश्वर ज्ञान इच्छाकृति विषये वयं दृष्टवन्तः. प्रागभावस्य अपि षष्टम कार्यं मात्रं प्रति कारणत्वम्, एते कारणता अस्ति कार्य सर्वाणि कार्य सर्वेषां कार्याणां प्रति.
तस्मात् ते साधारणकारणानि.
साधारणकारणानि.
अस्तु, प्रश्नः अस्ति वा एतावता? प्रश्नः अस्ति वा? अस्तु, अग्रे पुष्पा भगिनी पठति वा? ननु एवं ननु एवं
हा अस्तु महोदय. ननु एवं कुलालस्य अपि चेतनस्य घटकारणत्वं दृष्टान्तीकृत्य आत्मनिरूपणे ईश्वरः चेतनः जगत्कारणम् इति साधितः. सः इदानीं साधारणकारणगणनायां कृतः कुतः न परिगणितः इति चेत् अस्तु ईश्वरः सप्तमः कार्यमात्रं प्रति साधारणकारणं. केचन धर्मयोः अपि साधारणकारणत्वम् इच्छन्ति. धर्माधर्मयोः अपि साधारणकारणत्वम् इच्छन्ति. प्रागभावस्य अपि च साधारणकारणत्वं केचन न इच्छन्ति इति एषा दिक्. तत्त्वं तु मुक्तावल्यादि ग्रन्थेभ्यः अवगन्तव्यम् इति एकवारं पठित्वा वदामि महोदय. ननु एवं कुलालस्य अपि चेतनस्य घटकारणत्वं दृष्टान्तीकृत्य आत्मनिरूपणे ईश्वरः चेतनः जगत्कारणम् इति साधितः. ननु इति वदनेन इदानीं न ननु अस्ति वा इति न किं कथं जायते. ये सर्वे इदानीम् उक्तं न तत् सर्वे ननु एवं कुलालस्य अपि चेतनस्य घटकारणत्वं चेतनस्य कथम् आयाति चेतनस्य अस्तु घटकारणत्वं दृष्टान्तीकृत्य आत्मनिरूपणे ईश्वरः चेतनः. ईश्वरः एव चेतनः जगत्कारणम् इति साधितः.
कः दृष्टान्तीकृत्य
घटकारणत्वं दृष्टान्तीकृत्य चेतनस्य तत्तु चेतनस्य कुलालस्य घटकारणत्वं दृष्टान्तीकृत्य आत्मनिरूपणे ईश्वरः एव चेतनः जगत्कारणम् इति साधितः.
यथा घटं प्रति एकः चेतनः कारणं भवेत् कुलालः, तथा जगत्कारणं चेतनः भवेत् ईश्वरः.
सः इदानीं साधारणकारणगणनायां कुतः न परिगणित इति चेत्, अस्तु ईश्वरः सप्तमः कार्यमात्रं प्रति साधारणकारणं. सः इति वदनेन कुलालस्य इदानीम् इति न कुलाल
सः ईश्वरः
ईश्वरः इदानीं साधारणकारणगणनायां, तत्तु साधारणकारणम् इदानीं उक्तं न, तत् तत् गणनायां कुतः, एकः प्रश्नः अस्ति न, कुतः न कुतः न परिगणित ईश्वरः कथं न गणितं गणनीयम् इति वद इति चेत्, अस्तु ईश्वरः सप्तमः, तत्तु अष्ट अस्ति, सप्तमः ईश्वरः अस्ति, ईश्वरः इति साधारणकारणं.
पूर्वस्मिन् परिच्छेदे कानि कानि साधारणकारणानि उक्तम्?
ईश्वरसमवेतज्ञाने इच्छा कृतीनां प्रागभावः,
अपि च दिक्कालः. तत्र ईश्वरस्य समवेतज्ञानम् इच्छा कृति तत् स्वीकृतं, किन्तु ईश्वरः स्वयं किमर्थं न
स्वीकृतं
इति प्रश्नाय तत्र वदति अस्तु ईश्वरः भवतु, अस्तु ईश्वरः सप्तमः कार्यं सप्तमः कारणम् इति स्वीकरोतु
इति कोऽपि अन्य कोऽपि न, केचन धर्म अधर्मयोः अपि साधारणकारणत्वम् इच्छन्ति. तथैव ईश्वरः केचन धर्म अधर्म
ईश्वरः भिन्नः धर्माधर्म भिन्नः धर्माधर्म इति पुण्यपापः
केचन इति हैलैटेड् लेटर् वर्ड्
केचन नैयायिकाः केचन पण्डिताः
कोऽपि अन्य
पण्डिताः अन्य कोऽपि पण्डिताः
साधारण
कर्माधर्मः इत्यपि कारणं स्वीकुर्वन्ति. पुण्यपाप इत्युक्ते
पुण्यपापः धर्माधर्म पुण्यपाप प्रागभावः प्रागभावस्य अपि च साधारणकारणत्वं केचन न इच्छन्ति इति एषा दिक्. तत्तु अन्य कोऽपि तथैव चिन्तनम् अस्ति. प्रागभावस्य अपि साधारणकारणत्वं केचन न इच्छन्ति इति
भिन्नभिन्नभिप्रायाः सन्ति.
एषा दिक् ओ दिक् तु तत् अभिप्रायः
दिक् इत्युक्ते अलं पर्याप्तम् अग्रे मास्तु
तत्तत्त्वं तु मुक्तावल्यादि ग्रन्थेभ्यः अवगन्तव्यं. तत्तु तत् केचन तु मुक्तावल्याग्रन्थेभ्यः
सत्यम् अन्येषु ग्रन्थेषु भवतु नाम अग्रे समापयतु अग्रिमपुटे
अग्रिमपुटे तथा तथा च इमानि साधारणकारणानि तद् भिन्नानि सर्वाणि असाधारणकारणानि तानि तां युक्तिं जनयन्ति. यथा दण्डः घटं जनयति गृहं जनयति एवं विधानि कतिचित् एव अनुपद उक्तरीत्या कार्याणि उत्पादयति अतः दण्डः तेषाम् असाधारणं कारणं भवति तथा च घटस्य कपालादयः पटस्य तन्तु प्रभृततयः अवयविरूपस्य अवयवरूपं क्रियायाः संयोगः प्रत्यक्षस्य इन्द्रियं च असाधारणकारणं भवति तत् एतत् हृदि निधाय उक्तम् असाधारणं कारणम् इति
न करणम् इति
असाधारणं कारणं करणम् इति अस्तु तथैव चिन्तयामि कारणं कथम् आयति इति अस्तु महोदय तथा च इमानि साधारणकारणानि ये सर्वे तत् साधारणकारणानि तत्तु ईश्वरसमवेतज्ञाने च कृतीनां प्रागभावः दिक् तु ईश्वरः ते सर्वे साधारणकारणानि तद् भिन्नानि सर्वाणि असाधारणकारणानि ते सर्वे असाधारणकारणानि भिन्नभिन्न सर्वाणि असाधारणकारणानि सन्ति
तद् भिन्नानि साधारणकारणभिन्नानि असाधारणकारणानि
तद् भिन्नानि सर्वाणि असाधारणकारणानि न तानि तां युक्तिं जनयन्ति तत् किं कार्यं करोति तत् करोति इति कार्यं जनयति इति यथा दण्डः घटं जनयति गृहं जनयति एवं विधानि कतिचित् एव अनुपद उक्तरीत्या कार्याणि उत्पादयति एवं तथैव घटं जनयति दण्डः घटं जनयति इति तत् भिन्नभिन्नानि अनुपद उक्तरीत्या तत्तु इदानीं तथैव वदनां रैट् नास्ति न कार्याणि उत्पादयति अतः दण्डः तेषाम् असाधारणं कारणं भवति दण्डः कारणं तु भवति असाधारणकारणं कथम् आयाति
इत्युक्ते दण्डेन घटम् आगच्छति जन्यं भवति गृहजन्यं भवति किन्तु पटजन्यं न भवति अथवा अन्यजन्यं न भवति तर्हि असाधारणं कारणं सर्वाणि विषयाणि तु न जनयति दण्डः इत्यादि कालः तर्हि असाधारणं कारणम्
एतद्विषये तथा च घटस्य कपालादयः पटस्य तन्तुप्रभृतयः अवयविरूपस्य अवयवरूपं क्रियायाः संयोगः प्रत्यक्षस्य इन्द्रियं च असाधारणकारणं भवति घटस्य तत्तु कपालादयः घटस्य तन्तुप्रभृतयः पटस्य अवयवरूपम् अवयवीरूपस्य संयोग क्रियायाः संयोगः संयोगः क्रियायाः प्रत्यक्षस्य इन्द्रियम् इन्द्रियं तु प्रत्यक्षस्य च असाधारणकारणं भवति. तत् एतद् हृदि निधाय उक्तम् असाधारणं कारणं करणम् इति.
असाधारणं कारणं करणम् इति चिन्त्यते. अत्र एकः प्रायः मुद्रणदोषः अस्ति, क्रियायाः संयोगः इति अस्ति. तत्र संयोगः क्रियां प्रति कारणं भवति वा इति, किन्तु क्रियासंयोगं प्रति कारणं भवति. प्रायः तत्र मुद्रणदोषमिति वर्गे उक्तम्.
संयोगानां क्रिया
यथा कपालदयः घटं प्रति कारणं, तन्तु पटं प्रति कारणं, संयोगः क्रियां प्रति कारणम् इति प्रायः न भवति, किन्तु क्रिया संयोगं प्रति कारणं भवति.
क्रियासंयोगस्य इति
क्रियाकारणं सत्य इति भवितुमर्हति इति अपि च वर्गे अपि उक्तं. प्रश्नः आगतः यत् यथा पुष्पभगिनी उक्तवती प्रागभावः एकः तु नास्ति, इत्युक्ते घटस्य प्रागभावः घटं प्रति कारणं, पटस्य प्रागभावः पटं प्रति कारणं. तर्हि प्रागभावः एकः वा यथा दिक्कालः इति वा न वा उत विशेषणमस्ति वा घटं प्रति घटस्य प्रागभावः पट इति चिन्तनम् आसीत्. तत्र किञ्चित् समाधानं न उक्तम्. अत्र प्रागभावः एकः इति स्वीक्रियते अस्मिन् पुस्तके. अस्तु, एतावता प्रश्नः अस्ति वा? अत्र विषयः भेदः भवति
महोदय. तत्र प्रागभावस्य अनेकत्वम् अस्ति, तस्मिन् विषये मम गुरुणा पृष्टम्, उत्तरमपि लब्धम्. अस्मिन् विषये किञ्चित् पठामि. अत्र अस्मिन् प्रसङ्गे मम गुरुं पृष्टवान्, उत्तरमपि लब्धवान्, किमर्थं प्रश्नः आगतः इति चेत्, दिक् कालः ईश्वरादीय ज्ञानेच्छाकृतयः सर्वे एकं नित्यं च, किन्तु प्रागभावः अनेकः इति कृत्वा एव प्रश्नः आगतः. अत्र गुरुणा उक्तं यत् कारणम् एकं वा अनेकं वा, एकस्य कार्यस्य कारणं वा एकस्य कार्यस्य कारणं वा अनेककार्यस्य कारणं वा इति प्रश्नः अत्र न कर्तव्यम् इति प्रथमं गुरुणा उक्तम्. एकस्य कार्यस्य कारणं वा अनेकस्य कार्यस्य कारणं वा इति अत्र प्रश्नः न करणीयः. कारणं साधारणकारणं वा असाधारणकारणं वा इति निर्णयार्थं कार्यता अवच्छेदकधर्मः द्रष्टव्यः. यदि कार्यता अवच्छेदकधर्मः विशेषधर्मः अस्ति चेत् तस्य कारणम् असाधारणकारणं, तर्हि तस्य कारणत्वम् असाधारणकारणं, तस्य तादृशकारणम् असाधारणकारणं भवति. यदि कार्यतावच्छेदकधर्मः सामान्यः इत्युक्ते कार्यतायामेव, तर्हि तस्य कारणं भवति तादृशकारणं भवति साधारणकारणम् इति. अत्र उदाहरणार्थं कपालत्व अवच्छिन्नं कारणं घटत्व अवच्छिन्नकार्यं प्रति असाधारणकारणम्. कार्यं घटं, कारणं तु कपालम्. इदानीं कारणं कपालकारणं तु केन अवच्छिन्नम् इत्युक्ते कपालत्व अवच्छिन्नं, कार्यं तु घटत्व अवच्छिन्नं. कपालत्व अवच्छिन्नकारणं घटत्व अवच्छिन्नकार्यं प्रति एव कारणम् इति कृत्वा कपालत्वावच्छिन्नकारणं कपालः असाधारणकारणं भवति घटं प्रति. किमर्थम् अत्र कार्यतावच्छेदकधर्मः वक्तव्यः इति चेत् कपालत्व अवच्छिन्नकारणं पटत्व अवच्छिन्नकार्यं प्रति कारणं न भवति इत्यतः तत्र कपालत्वावच्छिन्नकारणं घटत्व केवलं घटत्वावच्छिन्नकार्यं प्रति एव कारणं भवति इति कृत्वा न तु पटत्वावच्छिन्नकार्यं प्रति इति कृत्वा कपालत्वावच्छिन्नकारणम् असाधारणकारणं भवति इति प्रथमम्. इदानीं तत्र एकनिमिषं घटत्वावच्छिन्नकार्यं प्रति कपालत्वावच्छिन्नकारणं व्यक्तिघटघट अपेक्षया सामान्यकारणं भवति तदपि. इदानीं घटत्वावच्छिन्नकार्यं यदा वयं जाति स्वीकुर्मः घटत्वम् इति जातिं स्वीकुर्मश्चेत् घटत्वावच्छिन्नकार्यं प्रति कपालत्वावच्छिन्नकारणं व्यक्तिगतघट एतद् घटम् इति वदामश्चेत् तत्र घटत्वावच्छिन्न कपालत्वावच्छिन्नकारणं सामान्यकारणं भवति न तु असाधारणकारणं साधारणकारणं भवति. एतद् घटं प्रति केवलम् एतत् कपालमेव असाधारणकारणं भवति किन्तु सामान्यरीत्या घटत्व कपालत्वावच्छिन्नकारणं सामान्य साधारणकारणं भवति इति अस्ति. एवमेव एतद् घटत्वावच्छिन्नकार्यं प्रति घटप्रागभावं कारणम्. एतत् अस्माकं पुरतः यद्घटम् अस्ति तद्घटं प्रति घटप्रागभावं कारणं भवति पटत्वावच्छिन्नकार्यं प्रति पटप्रागभावं कारणं भवति इति प्रत्येकं कार्यस्य तत्तद् अवच्छिन्नप्रागभावं कारणं भवति इति अस्ति. तत्तु सत्यम्. इदानीं सामान्यरीत्या वदामश्चेत् न कोऽपि धर्मेण अवच्छिन्नप्रागभावं कस्य कार्यस्य कारणं भवति. घटप्रागभावं तु घटत्वावच्छिन्नकार्यं प्रति कारणं भवति. पटप्रागभावं तु पटत्वावच्छिन्नकार्यं प्रति कारणं भवति. इदानीं साधारणरीत्या तत्र प्रागभावम् इति स्वीकुर्मश्चेत् न तु घटत्वावच्छिन्न पटत्वावच्छिन्न इति वदामश्चेत् तत्र केवलं प्रागभावः इति स्वीकुर्मश्चेत् कस्य कार्यं प्रति तत् कारणं भवति इति चिन्तने सति तत्र यत्किमपि वक्तुं न शक्यते. केवलं कार्यं प्रति एव प्रागभावकारणं भवितुमर्हति इति वक्तुं शक्यते. अवगच्छति किल?
तर्हि तर्हि कार्यतावच्छेद अवच्छेदकधर्मं स्वीकृत्य एव प्रागभावस्य किं विशेषणं भवति वा?
न न, तत्र कार्यतावच्छेदकधर्मं स्वीकृत्य एव प्रागभावस्य अनेकत्वं सिद्ध्यति. किन्तु केवलं कार्यम् इति वदामश्चेत् तत्र प्रागभावः एकः एव. घटत्वावच्छिन्नकार्यं प्रति घटप्रागभावः कारणं भवति, पटत्वावच्छिन्नकार्यं प्रति पटप्रागभावः कारणं भवति. इदानीं केवलं प्रागभावः इति स्वीकुर्मश्चेत् कस्य कार्यस्य तत् कारणं भवति इत्युक्ते तत्र कार्यतावच्छेदसम्बन्धः यत्किमपि न वक्तुं शक्यते.
केवलं
कार्यं
तर्हि साधारणकारणं भवितुम् अर्हति.
हा, इति कृत्वा प्रागभावः सर्वकार्यस्य साधारणं साधारणकारणं भवति. तस्मिन् स्तरे अतः अनेन उक्तं साधारणकारण असाधारणकारणयोः लक्षणम्. अनेन उक्तम् एतद् कार्यत्वावच्छिन्नकार्यतानिरूपितकारणाश्रयत्वं साधारणकारणत्वम् इति. तत्र केवलकार्यतायाः अवच्छिन्नधर्मः किम् इत्युक्ते केवलं कार्यत्व इत्येव. कार्यत्व अवच्छिन्न कार्यता निरूपित कारणता आश्रयत्वं साधारण कारणत्वं इति
प्रागभावे अस्ति
इति प्रागभावे अस्ति इति कृत्वा प्रागभावस्य साधारणकारणत्वं सिद्ध्यति. इदानीम् असाधारणकारणस्य लक्षणं किम् इत्युक्ते कार्यत्वेतरधर्मकार्यतानिरूपितकारणताश्रयत्वम् असाधारणकारणत्वम्. इदानीं कार्यता इति धर्मं त्यक्त्वा इतरधर्मं स्वीकृत्य कार्यतावच्छेदकधर्मं वदामश्चेत् तत्र असाधारणकारणत्वं भवति. यदा पटत्वावच्छिन्नकार्यः कार्यं घटत्वावच्छिन्नकार्यम् इति वदामश्चेत् तत्र असाधारणकारणं भवति. किन्तु केवलं कार्यतावच्छेदक कार्यता इत्येव धर्मं स्वीकृत्य वदामश्चेत् तत्र साधारणकारणं भवति. इदानीं दिक् काल ईश्वर इच्छा इति सर्वं यत् साधारण यस्य साधारणक येषां साधारणकारणत्वम् अस्माभिः स्वीकृतं तत्र पश्यामश्चेत् तत्र इदानीम् ईश्वरस्य इच्छा इति स्वीकुर्मश्चेत् तत्र केवलं सर्वस्य कारणस्य तत् साधारणकारणं भवति. केवलं कार्यता अवच्छेदकधर्ममेव तत्र स्वीकुर्मः चेत् प्रत्येकं न वक्तव्यं तत्र केवलं कार्यम् इत्युक्ते किं यस्मिन् कार्यता अस्ति. इदानीं कार्यता अवच्छिन्न यत् कार्यमस्ति तं प्रति एते सर्वे दिक् कालः ईश्वर इच्छा एतत् सर्वं कारणं भवति इति कृत्वा तत्र साधारणकारणं भवति इति अनेन उक्तम्.
सम्यक् अस्ति महोदय. सर्वे अवगतवन्तः वा? प्रश्नः अस्ति वा कस्यापि? चिन्तनमस्ति महोदय. सम्यक् अस्ति. अस्तु अग्रे भवान् एव पठतु तत्र कारणम् अग्रे.
प्रागभावः एक एव अस्ति न
प्रागभावः एकः एव
सर्वं प्रति
कार्यं प्रति
सर्वकार्यं प्रति
सर्वकार्यं प्रति प्रागभावः एव साधारणकारणं भवति. किन्तु घटं प्रति घटः इति घटत्वावच्छिन्नकार्यं प्रति घटप्रागभाव एव कारणं भवति.
तत्तु स्पेसिफै करणा
हा एक्साक्ट्लि तत्र व्यक्तिगतं स्वीकृत्य अस्माभिः उक्तं. किन्तु केवलं कार्यम् इति वदामश्चेत् कार्ये किमस्ति कार्यतावच्छेदकमेव अस्ति. तादृशकार्यतावच्छेदककार्यं प्रति केवलं प्रागभावः एव कारणम् इति वक्तुं शक्यते. न तु घटत्वावच्छ घटप्रागभावं वा पटप्रागभावं वा तत्र न वक्तुं शक्यते. केवलं कार्यं
स्वीकुर्मश्चस्य प्रागभावः असाधारणकारणं भवति वा तर्हि कथं?
हा सम्यक् तदेव. घटत्वावच्छिन्न घटप्रागभावः असाधारणं कारणं भवति घटत्वावच्छिन्नकार्यं प्रति
कार्यं प्रति.
किन्तु घटप्रागभावः तत्र एतत् घटं प्रति साधारणकारणं भवति. एतद् यद् अस्माकं पुरतः अस्ति तत् प्रति घटप्रागभावः साधारणकारणं भवति. इदानीम् एतद् घटं प्रति कीदृशप्रागभावः कारणं भवति चेत् एतद् घटप्रागभावः एव तत्र असाधारणं कारणं भवति.
न अन्य
सत्यं. यत् यद्घटम् मम पुरतः अस्ति तत् घटं प्रति तत् घटप्रागभावः एव असाधारणकारणं भवति. किन्तु घटप्रागभावः इति स्वीकुर्मश्चेत् तत्र तत् सर्वाणां घटानां प्रति सर्वेषां घटानां प्रति तत् साधारणकारणं भवति. किन्तु केवलं प्रागभावः इति स्वीकुर्मश्चेत् सर्वेषां कार्याणां प्रति तत् कारणं भवति, साधारणकारणं भवति इति अस्ति. अस्तु
महोदय, क्षम्यतां, मम एकः प्रश्नः अस्ति, परन्तु अहं कथं पृच्छामि इति प्रथमप्रश्नः, परन्तु अत्र घटस्य कारणं कपालः इति वयं जानीमः, अनन्तरं कुलालः, दण्डः इति वयं जानीमः. दण्डः अथवा अन्यत् किम् अस्ति चेत् परम्परया आगच्छति इति अपि अस्ति किल, अत्र दण्डः प्रत्यक्षकारणं नास्ति इति तदपि अस्ति किल. एवं अत्र साधारण इदानीं प्रागभावः इति स्वीकुर्मः, तत्र एतादृश साधारणकारणमिति न, अन्यरीत्या वक्तुं शक्नुमः वा, एवं किमपि वाक्यम् अस्ति वा तादृशं?
तत्र अत्र किम् उक्तं, दण्डः केन सम्बन्धेन कपाले अस्ति इत्युक्ते स्वजन्यभ्रमिजन्यभन्मवित्तासम्बन्धेन इति अस्ति. कारणमस्ति, सम्बन्धेन कार्यादिकरणे अस्ति.
तादृशवाक्यमेव अत्रापि अस्ति सजन्य.
अत्र दैशिकविशेषणता सम्बन्धः.
ओ एवं,
प्रागभावः दैशिकविशेषणता इत्युक्ते दिक् एव विशेषम् इत्युक्ते यस्मिन् देशे प्रागभावः अस्ति तस्मिन्नेव देशे घटोत्पत्तिः भवति. समानदेशत्वम् अस्ति प्रागभावस्य घटस्य कार्यस्य यत्किमपि कार्यस्य.
अत्र परन्तु यदा पूर्वम् उक्तं दिक्कालः इति नित्यं नित्यमेव, अत्र प्रागभावः नित्यं नास्ति, तदेव भेदः.
हा सत्यं, प्रागभावः नित्यं, प्रागभावः नष्टः भवति घटोत्पत्तिक्ष अन्तरक्षणे अग्रिमक्षणे.
आम्, प्रागभावः तु अनादि किन्तु शान्तम्. यत् प्रागभावः इदानीं घटोत्पत्ति अनन्तरं नष्टः अभवत् तद् तस्य उत्पत्तन उत्पादनं कदा इति पृष्टे सति तत् अनादिः किन्तु शान्तं भवति. यस्मिन् क्षणे घटोत्पत्तिः भवति तस्मिन् क्षणे तद् नष्टः भवति.
तदेव अन्य इत्युक्ते कपालः अस्ति, दण्डः अस्ति, चक्रमस्ति, कालः अस्ति, दिक् अस्ति, प्रागभावः अस्ति, परन्तु घटोत्पत्ति अनन्तरं केवलं प्रागभावः एव नष्टः जातः.
सम्यक् सम्यक् सत्यं, कपालः तु नष्टं न भवति, यदा घटोत्पत्तिः भवति कपालः तिष्ठत्येव.
अतः तत्र इति साधारणकारणं, परन्तु विशिष्ट साधारणकारणम्
आमां
इति सत्यं, प्रागभावः किञ्चित् भिन्नः वैलक्षण्यम् अस्ति.
अपि च दण्डविषये अपि वयम् अस्माभिः दृष्टं किल, इदानीं तत्र कपालघटोत्पत्तिः पूर्वं दण्डेन चक्रभ्रमणं कृतम् इति चिन्तयामः. इदानीं चक्रं भ्रमन् अस्ति, यदा तस्य तत्र दण्डस्य नाशः अभवत् इति चिन्तयामः, तथापि तस्य नष्टस्य नष्टदण्डस्य कारणं वयं स्वीकुर्मः. किमर्थम् इत्युक्ते पूर्वक्षणे, साक्षात् पूर्वक्षणे नास्ति दण्डः, दण्डः नष्टः अभवत्, किन्तु अनेन दण्डेन एव चक्रभ्रमणं कृतम् इति कृत्वा दण्डः नष्टः भवति चेदपि तस्य कारणत्वं वयं स्वीकुर्मः एव चक्रभ्रमणस्य भ्रमणपरम्पराद्वारा. किन्तु अत्र नियमेन प्रागभावः नश्यत्येव इति तत्र वैशिष्ट्यमस्ति प्रागभावस्य.
अन्यानि सर्वाणि साधारणकारणानि नित्याः, किन्तु प्रागभावः एव अनित्या.
आम्,
तत्र वैलक्षण्यमस्ति सत्यं.
तादृशमेव ते साधितवन्तः किल तस्य कारणत्वं, नो चेत् प्रागभावस्य कारणत्वमेव न साधयितुं शक्यते. अस्तु,
अन्य प्रश्नः अस्ति वा?
प्रश्नः नास्ति, परन्तु यदा महोदयस्य वाक्यम् एवं श्रुतम्, अत्र एकस्य बहूनि कारणानि सन्ति एककार्यस्य, अनन्तरं बहवः बहूनां कार्याणां एकः एव कार्यम् इति कारणम् इति अपि भवति किल. अत्र इत्युक्ते एकः घटः अस्ति, एकं चक्रम्, एकः दण्डः, तान् उपयुज्य एव बहवः घटाः अपि भवितुमर्हन्ति किल.
एकेन चक्रेण बहूनि बहवः घटाः भवितुमः सत्यं.
तस्मिन् समये प्रागभावः अपि भिन्नभिन्नाः, इत्युक्ते घटद्वयम् इति स्वीकुर्मः चेत् अत्र प्रागभावद्वयमपि इति अपि स्वीकरणीयम्. इत्युक्ते घटः एकः घटः आ इति, द्वितीयघटः आ इति स्वीकुर्मः चेत् प्रागभावः आ, प्रागभावः आ इति द्वयमपि प्रत्ययं प्रत्ययं स्वीकुर्मः किल तस्मिन् उदाहरणे.
द्वितीयस्य घटस्य प्रति तस्य द्वितीयस्य घटस्य प्रागभावः कारणम्. एकमेकं कार्यं प्रति एकमेकं प्रागभावः कारणं भवितुमर्हति, भवत्येव.
परन्तु अन्यकारणानि एकमेव, इत्युक्ते एकं चक्रम्, एकः दण्डः, एकः कुलालः इति
सत्यं. तथा अस्ति. अस्तु, किञ्चित् अग्रे पठेमः वा, पठामः वा? केवलं तत्र पङ्क्तिद्वयं प्रायः. सुगवान् महोदय पठति वा तत्र?
हा, पठामि महोदय.
लक्षणवाक्यं केचन.
हा, तत्र कारणपदार्थमाह कार्यनिरूप नियतपूर्ववृत्तिकारणम् इति तद्घटकं कार्यमाह कार्यं प्रागभावप्रतियोगी इति पठितं वा? न पठितं किल?
न पठितं.
अस्तु अस्तु अस्तु, इदम् उभयं विस्तरेण निरूपितं पृष्ठसङ्ख्या 29. तत्र कारणस्य विभागमाह कारणं त्रिविधं समवायि असमवायि निमित्तभेदात्, यत् समवेतं कार्यमुद्भत्यते तत् समवायिकारणं, यथा तन्तवः पटस्य पटश्च स्वगतरूपादेः कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतं सत् कारणम् असमवायिकारणं, यथा तन्तुसंयोगः पटस्य तन्तुरूपं पटरूपस्य, तदुभयभिन्नं कारणं निमित्तकारणं, यथा तुरी वेमादिकं पटस्य इति.
इत्येवं कुर्मः. केवलं केवलं कारणं कार्यम् इति लक्षणवाक्यं प्रतिपादयित्वा समापयामः.
अस्तु,
कारणस्य अग्रिमे.
हा हा, कारणपदार्थमाह कार्यनियतपूर्ववृत्तिकारणम् इति
पूर्ववर्ति
पूर्ववर्ति क्षम्यतां पूर्ववर्तिकारणम् इति. इदानीं कारणं किम् इति, तस्य लक्षणं किम् इति पृष्टे सति कार्यनियतपूर्ववर्तिकारणम् इत्युक्ते तत्र यत्र कार्यम् उत्पद्यते तस्मिन् कार्यक्षेत्रे कार्याधिकरणे नियतेन नियमेन यद् भवेत् तद् कारणम् इति कारणस्य लक्षणं स्वीकर्तुं शक्यते. कारणं नास्ति चेत् पूर्वं पूर्वक्षणे पूर्वक्षणे वा तस्मात् पूर्वं वा पूर्वं भवेत् कार्याधिकरणे, किन्तु कार्याधिकरणे भवेत् इति अपि अस्ति. तदेव कारणम् इति कारणस्य लक्षणं. तद्घटकं कार्यमाह कार्यं प्रागभावप्रतियोगी इति. इदानीं कार्यं किम् इति पृष्टे सति तस्य लक्षणम् एतादृशं नैयायिकाः वदन्ति प्रागभावप्रतियोगी इति ते वदन्ति. प्रतियोगी इत्युक्ते यस्य अभावः सः प्रतियोगी इति. यस्य अभावः तदेव तस्य प्रतियोगी, अभावस्य प्रतियोगी भवति इति प्रतियोगेः लक्षणं वयं दृष्टवन्तः. इदानीं कार्यं किम् इति पृष्टे सति तत्र प्रतियोगिधर्मं स्वीकृत्य एव कार्यस्य लक्षणं ते वदन्ति. कार्यं किम् इत्युक्ते प्रागभावप्रतियोगी. प्रागभावः तु कीदृश अभावः न, प्रागभावः इति भिन्न अभावः एव. प्रागभावः प्रागभावस्य प्रतियोगी यत् तदेव कार्यम् इति ते वदन्ति.
इत्युक्ते यस्य आनयनेन प्रागभावः नश्यति तस्य तत् कार्यम्
आम्
तत् प्रतियोगी. अत्र केवलं वर्गे उक्तं यत् कार्यनियतपूर्ववती इति अस्ति, तस्मात् पूर्वं यत् अन्यथा सिद्धत्वं नास्ति इत्यपि एकः निकषः अस्ति. अन्यथा सिद्धत्वे असति कार्यनियतपूर्ववर्ति कारणम् इत्युक्ते कुलालस्य पिता अस्ति, सापि पूर्वम् अस्ति, सः कारणं नास्ति इत्यपि अस्ति किल. सः अन्यथा सिद्धः इति अस्ति
सत्यम्
इत्यपि महोदयेन उक्तं. तस्मात् पूर्वम् अन्यथा सिद्धत्वे असति कार्यनियतपूर्ववती कारणम् इति सम्पूर्णतया प्रायः अग्रे आगच्छति पुस्तके एव.
आम्
महोदयेन उक्तम्
इदानीं, किन्तु अन्यथा सिद्धत्वविषये वयं न पठितवन्तः.
सत्यं सत्यं.
कथं वा कुलालस्य पितुः अन्यथा सिद्धिः भवति इति.
सत्यं.
किन्तु आम् अन्यथा सिद्धत्वे असति कार्यनियतपूर्ववर्ति कारणम्
इति परिचयत्वेन उक्तं, परिचयेन केवलम् उक्तम्.
आमां सत्यम्.
अस्तु, अत्र सगायामः. अग्रिमे सप्ताहे प्रायः अग्रिमे सप्ताहे कृत्वा समापयितुं शक्नुमः, पश्यामः कथं भवति इति. प्रश्नः नास्ति चेत् समापयामः. धन्यवादः. शुभरात्रिः.
धन्यवादः. धन्यवादः. शुभरात्रिः.